शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्या स्युः तं नमामि गजाननं दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीं अक्षमालां दधान हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमाना समाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना कूजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविता शाखां वन्दे वाल्मीकिकोकिलं वाल्मीकिर्मुनिसंमस्य कवितावनचारिणः शृण्वन् रामकथानाथं कोनयाति पराङ्गतिं यः पिपंसतं रामचरितामृतसागरम् अतृप्तस्तं मुनिं वन्दे प्राचेदसमकल्मषं गोष्पतीकृतवाराशिम् मशकीकृतराक्षसम् रामायणमहामालारत्नम् वन्दे अनिलात्मजम् अञ्जनानन्दनम् वीरम् जानकीशोकनाशनम् कपीशमक्षहन्तारम् वन्दे लङ्काभयङ्करम् उल्लङ्घ्य सिन्धोत्सलिलम् सलीलम् यशोकवग्निम् जनकात्मजायाः आदाय तेनैव ददाह लङ्काम् नमामि तम् प्राञ्जलिराञ्जनेयम् आञ्जनेयमधिपाडलाननम् काञ्चनाद्रिकमनीय विग्रहम् पारिजात तरुमूलवासिनम् भावयामि पवमाननन्दनम् यत्र यत्र रघुनाथ कीर्तनम् तत्र तत्र कृतमस्तकाञ्जलिम् बाष्पवारि परिपूर्णलोचनम् मारुतिम् नमत राक्षसान्तकम् मनोजवम् मारुततुल्यवेगम् जितेन्द्रियम् बुद्धिमताम् वरिष्ठम् वातात्मजम् मानरयूथमुख्यम् श्रीरामदूतम् शिरसा नमामि यः कर्णाञ्जलिसम्पुटैः अहरहः सम्यक् पिबत्यादरात् वाल्मीकेर्वदनारविन्दगणितम् रामायणाख्यम् मधु जन्मव्याधिजराविपत्तिनिधनैः अत्यन्तसोपद्रवम् संसारम् सविहाय गच्छति पुमान् विष्णोः पदम् शाश्वतम् तदुपगतसमाससन्धियोगम् सममधुरोपनतार्थवाक्यबद्धम् रघुवरचरितम् मुनिः प्रणीतम् दशशिरसश्च वधम् निशामयध्वम् वाल्मीकिगिरिसम्भूता रामसागरगामिनी पुनातिभुवनम् पुण्या रामायणमहानदी श्लोकसारसमाकीर्णम् सर्गकल्लोलसङ्गुलम् काण्डग्राहमहामीनम् वन्दे रामायणार्णवम् वेदवेद्ये परे पुंसि जाते दशरथात्मजे वेदः प्राचेदसादासीत् साक्षाद् रामायणात्मना वैदेही सहितम् सुरद्रुमतले हैमे महामण्टपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् अग्रे वाचेति प्रभञ्जनसुते तत्त्वम् मुनिभ्यः परम् व्याख्यान्तम् भरतादिभिः परिवृतम् रामम् भजे श्यामणम् वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रा सुतः शत्रुघ्नो भरतश्च पार्श्वतलयो वायुवादिकोणेषु च सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिम् रामम् भजे श्यामणम् नमोऽस्तु रामाय स लक्ष्मणाय देवी च तस्यै जनकात्मजायै नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यः नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः बुद्धिर्बलम् यशो धैर्यम् निर्भयत्वम् मरोगता अजाड्यम् वाक्पटुत्वञ्च हनूमत्स्मरणाद् भवेत् दूरीकृतसीतार्तिः प्रकटीकृत रामवैभवस्फूर्तिः दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि पौरुषे चाप्रतिद्वन्द्वः शरैनम् जहिरावणिम् सकृदेव प्रपन्नाय तवास्मीति च याचते अभयम् सर्वभूतेभ्यः ददामि एतत् व्रतम् मम।